अथ गणपतिस्तवः ऋषिरुवाच अजम् निर्विकल्पम् निराहारमेकम् निरानन्दमानन्दमद्वैतपूर्णम् परम् निर्गुणम् निर्विशेषम् निरीहम् परब्रह्मरूपम् गणेशम् भजेम गुणातीतमानं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यं मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गणेशं भजेम जगद्व्यापिनं विश्ववन्यं सुरेशं परब्रह्मरूपं गणेशं भजेम रजो योगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं वृदाचिन्त्यरूपं जगत्कारणं सर्वविद्यानिदानं परब्रह्मरूपं गणेशं नतास्म सदा सत्ययोग्यं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् अनेकावतारं निजज्ञानहारं सदा विश्वरूपं गणेशं नमाम तमो योगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् अनेकागमैस्त्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमाम नमस्तोमहारं जनाज्ञानहारं त्रयी वेदसारं परब्रह्मसारं मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमाम निजैरोषधिस्तर्पयन्तं कराद्यै सुरौघान् कलाभिः सुधाश्राविणीभिः दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमाम प्रकाशस्वरूपं नमो वायुरूपं विकारादिहेतुं कलाधारभूतम् अनेकक्रियानेकशक्तिस्वरूपं सदाशक्तिरूपं गणेशं नमाम प्रधानस्वरूपं महत्तत्त्वरूपं धराचारिरूपं दिगीशादिरूपं असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नतास्म त्वदीये मनस्थापयेदङ्ग्रियुग्मे स नो विघ्नसङ्घातपीडां लभेत लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनोध्वान्तपीडां कथं वा लभेत वयं रामिता सर्वथा ज्ञानयोगादलब्धस्तवाङ्घ्री बहून् पर्षपूगान् इदानीमवाप्तस्तवैव प्रसादात् प्रपन्नान् सदा पाहि विश्वम्भराद्य एवं स्तुतो गणेशस्तु सन्तुष्टो भून्महामुने कृपया परयोपेतो विधातुमुपचक्रमे इति श्रीमद्गर्गऋषिप्रणीतो गणपतिस्तवः सम्पूर्णः।